गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवाशरव्यायात पतया नो रुद्रमृडया याते रुद्रशिवा तनुरघोरा पापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगदयक्ष्मगुं सुमना असत् अद्य वोच दधि भक्ता प्रथमो देव्योऽभिषक् अहीगुश्च सर्वान् जम्भयन् सर्वाच्च यातु धान्यः असूयस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभिदो दिक्षुश्रिताः सहस्रशो वैशागुम् हेडयीमहे असौ यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुत आर्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो गरन्नमः प्रमुञ्जदन्वनस्त्वमुभयोरात्रियोर्जाम् यास्य ते हस्त इषवः पराता भगवो वपा अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्यानामुहाशिवो नः सुमना भवा विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निशम् गधिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो एतिरस्मान् वृणक्तु विश्वतः अधो यहि शुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरांधकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्रिषीमते पधीनां पतये नमो नमो बब्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय सपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णभीताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुंधभ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्भ्य प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो मृजद्भ्यश्च वो नमो नमो स्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनीभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः సేనానిభ్యస్య వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ బాహ్మనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ శీభ్యాయ చ నమః ఊర్వ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ
శేమ్యాయ చ
నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావబిందతే చ నమో వర్మిణే చ వరూథినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చాఖనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తీష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ
వ్యాయ చ
నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమో
అగ్రే
వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివధరాయ చ నమః తీర్థ్యాయ చ కూర్యాయ చ నమః पार्याय च वार्याय च नमः प्रदरणाय चोत्तरणाय च नमः तार्याय चालाद्याय च नमः कश्प्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नम हिरण्याय च प्रपत्याय च नमः केगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः खिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनावमत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम्बुष्टम् ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुरायजे पिता तदश्यामदवरुद्रप्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वधी पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्तो नमसा विधेमते आराते गोघ्नमुत पूरुषग्ने क्षयद्वीराय सुम् नमस्मे ते अस्तु रक्षा जनो अधिजदेव ब्रूह्यथा जनः शर्म यच्छद्विबर्हाः सुहिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्रुमुग्रम् मृडा चरिद्रे रुद्रस्तवानो अन्यन्दे अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरगायो कवस्तिरामगवद्व्यस्तनुष्वमीढ्वस्तोकयतनयाय मृडया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसान आचर पिनाक निब्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोऽन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवपराचीना मुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभूम्याम् तेषागुं सहस्रयोजने वदन्नानि तन्नसि अस्मिन् महत्यर्णवे अन्तरिक्षे भवा अधे नीलग्रीवाशितिकण्ठा शर्वा अधः शमाचराः नीलग्रीवाशितिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् प्रतिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रजरन्ति सृगावन्धो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वरुषमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणादश प्रतेजेर्दशो देजेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् भोजम् दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषस्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेशौ मनसाय रुद्रम् नमो विर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयगुः शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः छञ्च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौ मनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे दत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महच्च मे संविच्च मे ज्ञात्रम् च मे चोश्च मे प्रचोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः भ्रुवना भवतु सहनौ भुनक्तु
सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वैवारुणिः वरुणं पितरमुपससार अधिभगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नं प्राणं चक्षुश्रोत्रं मनोवाचमिति तगुंहोवाच यतो वा इमानि भूतानि जायन्ते ये न जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात् अन्नाद्येव कल्विमानि भूतानि जायन्ते अन्ने न जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा विज्ञानं ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्तीति सैषाभार्गवीवाहृणी विद्या परमे व्योमन् प्रतिष्ठिता य एवं वेद प्रतिष्ठति अन्नवानन्दादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसे न महान् कीर्त्या अन्नम् न निन्द्यात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसे न महान् कीर्त्या अन्नम् न निचक्षेत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सुज्योतिप्रतिष्ठितम् ज्योतिष्यापप्रतिष्ठिताः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसे न महान् कीर्त्या अन्नम् बहु कुर्वीत तद्व्रतम् पृथिवी वा अन्नम् आकाशोऽन्नादः पृथिव्यामाकाश प्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसे न महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षीत तद्व्रतम् तस्माध्ययाकया च विधया बह्वन्नम् प्राप्नुयात् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतोऽन्नगुम्राद्धम् मुखतोऽस्मा अन्नगुम्राध्यते एतद्वै मध्यतोऽन्नगुम्राद्धम् मध्यतोऽस्मा अन्नगुम्राध्यते एतद्वा अन्ततोऽन्नगुम्राद्धम् अन्ततोऽस्मा अन्नगुम्राध्यते य एवम् वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषी समाज्ञाः अथ दैवी तृप्तिरिति वृष्टौ बलमिति विद्युति यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपाधीत प्रतिष्ठावान् भवति तन्मह इत्युपाधीत महान् भवति तन्मन इत्युपाधीत मानवान् भवति तन्नम इत्युपाधीत नम्यन्ते एस्मै कामाः तद्ब्रह्मेत्युपाधीत ब्रह्मवान् भवति तद्ब्रह्मण परिमर इत्युपाधीत पर्येणम् म्रियन्ते द्विषन्तः सपत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्च सावादित्ये स एकः स य एवम् वित् अस्माल्लोकात् प्रेत्य
ఏతమన్నమయమాత్మానముపసంక్రమ్య ఏతం ప్రాణమయమాత్మానముపసంక్రమ్య ఏతం మనోమయమాత్మానముపసంక్రమ్య ఏతం విజ్ఞానమయమాత్మానముపసంక్రమ్య ఏతమానందమయమాత్మానముపసంక్రమ్య ఇమాల్లోకాన్ కామాన్ని కామరూప్యను సంచరన్ ఏతత్ సామగాయన్నాస్తే అహమన్నమహమన్నమహమన్నం అహమన్నాదో అహమన్నాదో అహమన్నాదః అహగ్గశ్లోకకృదహగ్గశ్లోకకృదహగ్గశ్లోకకృత అహమస్మి ప్రథమజానుతాస్యః పూర్వం దేవేభ్యో అమృతస్య నామాయి యో మా దదాతి స ఇ దేవమాభాః అహమన్నమన్న వదంతమాద్మి అహం విశ్వం భువనమభ్య భవాన్ సువర్ణ జ్యోతిః య ఏవం వేద ఇత్యుపనిషత్ సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతిః హిరణ్యవర్ణాశుజయ పావకాయాసుజాత కశ్యపోయాస్వింద్రః అగ్నియా గర్భం దదిరే విరూపాస్తాదాపశ్యగస్యో నాభవంతు యా సాగుం రాజా వరుణో యాతి మధ్యే సత్యాన్వృతే అవపశ్యం జనానాం మధుశ్రుతశ్రుచయో యా పావకాస్తాన ఆపశ్యగస్యో నాభవంతు యా సాం దేవాది వికృణ్వంది వక్ష్యం యా అంతరిక్షే బహుధా భవంతే యా పృథివీం పయసోందంది శుక్రాస్తాన ఆపశ్యగ్రస్యో నాభవంతు శివేన మా చక్షుషా పశ్యతాప శివయా తనువోపస్పృశత త్వచం వే సర్వాగుం అగ్నేగుం రప్సుషదో హువే భోమ ఇవర్చో బలమో జోనిధత్త పవమానస్సువర్జనః పవిత్రేణ విచర్షణిః యప్పోతాస పునాతు మాం పునందు మా దేవ జనాః పునందు మనసో ధియా పునందు విశ్వ ఆయవః జాత వేద పవిత్రవత్ పవిత్రేణ పునాహి మాం శుక్రేణ దేవదీద్యత్ అగ్నే క్రత్వా క్రతో గుమ్రణో యత్తే పవిత్రమర్చిషే అగ్నే విततమంతరా బ్రహ్మతేన పునీమహే ఉభావ్యాం దేవ సవితః పవిత్రేణ సవేన చ ఇదం బ్రహ్మ మునీమహే వైశ్వదేవే పునదే దేవ్యాగాత్ యస్యే భక్వేం తనువో వేద పృష్టాః తయా మదందః సదమాద్యేషు వయగ్గస్యామపదయోరగేణాం వైశ్వానరో రశ్మిభిర్మా పునాతో వాత ప్రాణేనే శిరో మయో భూ
व्यावा पृथिवी पयसा पयोभिः वृतावदे यज्ञिये मा पुनीता बृहद्भिः सवितस्त्रभिः वर्षिष्ठै देवमन्मभिः अग्ने दक्ष्यै पुनातु माम् येन देवा अपुनुत येनापो दिव्यङ्गजः तेन दिव्येन ब्रह्मणा इदं ब्रह्म पुनीमहे यः पावमानी रध्येते ऋषभिः संहृतगुं रसम् सर्वगुं सपूतमश्नाते स्वदिदं मातरिष्वना पावमानीर्यो अध्येते ऋषिभिः संहृतगुं रसम् तस्मै सरस्वते दुहे क्षीरगुं सर्पिर्मदूदगम् पावमानी स्वत्यगनीः सुदुगाहि पयस्वतेः ऋषिभिः संमृदो रसः ब्राह्मणे स्वमृदगुं हितम् पावमानीर्दृशन्धुनः इमं लोकमधो अमुम् कामान् समर्थयन्धुनः देवैर्देवै समाभृताः पावमानी स्वत्ययनीः सुदुगाहि घृतश्च्युतः ऋषिभिः संमृदो रसः ब्राह्मणे स्वमृदगुं हितम् येन देवा पवित्रेण आत्मानं पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु माम् राजापत्यं पवित्रम् शतोद्यामगुं हिरण्मयम् तेन ब्रह्मविदो वयम् भूतं ब्रह्म पुनीमहे इन्द्रः सुनीते सह मा पुनातु सोमस्वत्या वरुणः समीक्षा यमो राजा प्रवृणाकि पुनातु माम् जातवेदा मूर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदगे दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः